एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सम्प्रत्येव प्रतिनिधि सभातः पारितीभूतस्य संघीय सर्वकारीय सेवा विधेयकस्य कतिसूचित प्रावधानेषु परिवर्तन सम्बद्धे विषये अनुसन्धानं कर्तुं विशेष संसदीय समितिः निर्मीयते। प्रतिनिधि सभायाः सभामुखस्य देवराज घिमिरे विधस्य प्रमुखाणां राजनीतिक दलानां प्रमुख सचेतकानां च मध्ये ह्यः सम्पन्ने विमर्शने संघीय सर्वकारीय सेवा विधेयकस्य अवकाश प्राप्तोत्तर कालिकादेशन व्यवस्थायां विहितस्य परिवर्तनस्य विषये अनुसन्धातुं संसदीय समिति संघटनस्य निर्णयः कृतोऽस्तीति नेकपा एमाले दलस्य प्रमुख सचेतक पदीयो महेश वर्तौला असूचयत्। संसदीय अनुसन्धान समितौ नेकपा एमाले दलस्य पक्षतः द्वौ, नेपाली कांग्रेस दलस्य पक्षतः द्वौ, माओवादी केन्द्रस्य पक्षतः एकः, रासोपा दलस्य पक्षतः एक, राप्रपा दलस्य पक्षतः एकश्चेति आहत्य सप्त सदस्याः भविष्यन्तीति प्रमुख सचेतक पदीयो वर्तौला असूचयत्। सभामुखस्य प्रमुख सचेतकानां च उपवेशे संसदीयानुसन्धान समित्या यथाशक्यं शीघ्रं प्रतिवेदन प्रदानत्वेन कार्यावधिं निर्मातुम् एतत् सम्बद्धं निर्णयं प्रतिनिधिसभायाः आगामिनः उपवेशात् अनुमोदयितुं च सहमतिर्धृता अस्ति इति च नेता वर्तौला असूचयत्। एवमेव संसदीयानुसन्धान समितेः संयोजकस्य दलानां पक्षतः सहभागिनां समिति सदस्यानां च नामानि प्रतिनिधिसभा कार्यव्यवस्था समितेः आगामि उपवेशात् प्रागेव सभामुखाय प्रदातुं च सहमतिर्धृता वर्तते इति च माओवादी केन्द्रस्य प्रमुख सचेतक पदीयो हितराज पाण्डे असूचयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह मलेसिया नेपाल व्यापार परिषदः प्रतिनिधिभिः ह्य नेपाले विभिन्नेष् क्षेत्रेष् निवेशनस्य सम्भावनायाः अवसरस्य च विषये मेलवार्ता विहिता अस्ति। बालुवाचारवर्तिनी प्रधानमन्त्री निवासे सम्पन्नायां मेलवार्तायां मलेसिया देशस्य प्याराडाइज व्यापार समूहस्य कार्यकार्याध्यक्षस्य प्रदीप कुमार कुकरेजा विदस्य नेतृत्वे आगतेन विंशति सदस्यात्मकेन प्रतिनिधिमण्डलेन नेपाले नवीनानाम् उद्योगानां कृते द्वयोः देशयोः अर्थपूर्णस्य व्यावसायिकस्य च सम्बन्धस्य, नेपाले व्यावसायिक वातावरण निर्माणस्य च विषये विस्तृतरूपेण अवगन्तुम् आत्मना भ्रमणाय आगतमस्तीति उक्तमासीत्। तदवसरे प्रधानमन्त्रिणा ओलिना नेपालस्य समृद्धे कृते वैदेशिकानां निवेशनानां प्रोत्साहनं कर्तुम् आवश्यक विधिं निर्मातुं संरचनात्मक सुधारान् कर्तुं च सर्वकारः प्रतिबद्धोऽस्तीति कथयता निर्भयेन निश्शङ्कया च नेपाले निवेशनं कर्तुम् आग्रह कृतः आसीत्। प्रधानमन्त्रिणा सह विहितायाः मेलवार्तायाः अनन्तरं उक्तेन प्रतिनिधिमण्डलेन नेपाले अवकर प्रशोधनस्य, कृषेः सूचना प्रविध्युद्यानस्य क्षेत्रेष् निवेशनं कर्तुम् आत्मनाम् उत्सुकता अस्ति इति उक्तमासीत्। अद्य सनातन धर्मावलम्बिनां पावनतिथिः हरिशयनी एकादशी, भगवतः श्रीविष्णोः पूजाराधन पुरस्सरं सभक्ति समायोज्यमाना वर्तते। पौराणिक कथनस्य अनुसारेण मूर नामक दैत्यस्य आतंकात् देवतः मोचयितुं कदाचित् भगवता विष्णुना महान् संघर्षो विहितः, अथ च असौ युद्धस्य परिश्रमात् विश्रान्तिं प्राप्तुं बदरिकाश्रमस्थितां हैमवती गुहां यत्य शयितः इति घटनायाः स्मृतौ पर्वेदं हरिशयनी एकादशी नाम्ना प्रथितं वर्तते। वैदिक परम्परानुसारेण हरिशयनी एकादशी प्रभृति मासचतुष्टयं यावत् भगवन्तं विष्णुं प्रति भक्ति प्रकटन पूर्वकं धार्मिकानुष्ठानं सम्पाद्यते। हरिशयनी एकादश्यां सुप्तः भगवान् श्री विष्णुः मासचतुष्टयानन्तरं कार्तिक शुक्लपक्षस्य एकादश्याः दिने जागर्ति इत्यतः एतस्मिन् दिने हरिबोधिनी एकादशी पर्व समायोज्यते। हरिशयनी एकादशीतः हरिबोधिनी एकादशीं यावत् चतुर्षु मासेषु चतुर्मासकालः इति नाम्ना धार्मिकानुष्ठानं भवति। अस्मिन् दिने एव मानवाय आरोग्यदायिका महौषधेः गुणसम्बलितां च तुलसी विरुद्धं स्वकीय गृह प्रांगणेषु संरूप्य अस्याः प्रपूजनस्य प्रचलनं विद्यते। हरिशयनी एकादशी पर्वणः दिने काष्ठमण्डपस्य बुढा नीलकण्ठ नारायण स्थानेन सहैव उपत्यकायाः चतुर्षु नारायण मन्दिरेषु देशस्य अन्यत्र विभिन्नेषु जनपदेषु अवस्थितेषु नारायण मन्दिरेषु च भक्तजनानां महान् सम्मर्दः दृश्यते। वर्षायाः अनन्तरं दुरापन्नयोः जलविप्लव भूस्खलनयोः कारणेन देशस्य विभिन्नानां राजमार्गाणां सप्तमार्गाः अवरुद्धाः सन्ति। प्रहरी प्रधान कार्यालयस्य अनुसारेण जलविप्लवस्य भूस्खलनस्य च कारणेन संखुवासभा काभ्रेपलाञ्चोक सिन्धुपाल्चोक डोल्पा रूकुम पश्चिम जाजरकोट बाजुरा जनपदानां मार्गाः पूर्णरूपेण अवरुद्धाः सन्ति। संखुवासभा जनपदस्य भोटखोला ग्रामपालिकायां वर्षायाः कारणेन कोशी राजमार्गः पूर्णरूपेण अवरुद्ध अस्तीति नेपाल प्रहरिणः केन्द्रीय प्रवक्ता प्रहरिणा एव महानिरीक्षकः विनोद घिमिरे अज्ञापयत्। एवमेव काभ्री पलाञ्चोक जनपदस्य बनेपा नगरपालिकायाः चतुर्थ वडा क्षेत्रे दुरापन्नेन भूस्खलनेन एकः सेतुः विनष्ट अस्तीति हेतुः भक्तपुर नाला मार्गः पूर्णरूपेण अवरुद्ध अस्ति। तथैव सिन्धुपाल्चोक जनपदस्य भोटेकोशी ग्रामपालिकायाः कोदारी स्थाने भूस्खलनेन अरणीको राजमार्गः पूर्णरूपेण अवरुद्धोऽस्ति। डोल्पा जनपदस्य त्रिपुरा सुन्दरी नगरपालिकायाः प्रथम ओडा क्षेत्रस्य छलघाट स्थाने जलविप्लवेन भेरी नद्याः तटीय मार्गः अवरुद्ध अस्ति चेत् रूकुम पश्चिम जनपदस्य आठ बिस्कुट नगरपालिकायाः षष्ठ ओडा क्षेत्रस्य रिजिगार स्थाने च जलविप्लवेन जाजरकोट डोल्पा भेरी तटीय मार्गः अवरुद्ध अस्ति। इति समाचारः।